वज्राजिरेश्वम्बुदनादशङ्किनी शिखण्डिना मुन्मदयत्सु योषितः मुहुः प्रणुन्नेषु मथां विवर्तनैः नदत्सु कुम्भेषु मृदङ्गमन्थरम्। व्रजेति व्रजाजिरेषु गोष्ठप्राङ्गणेषु अधिकरणे सप्तमी। व्रजो गोष्ठाध्वबृन्देषु इति विश्वः। अम्बुदनादशङ्किनीः गर्जितभ्रमवतीः इति भ्रान्तिमदलङ्कारः। शिखण्डिनाम् योषितः मयूरीः योषिद्ग्रहणम् मौग्ध्यातिशयार्थम्। उन्मदयत्सु उन्मदाः कुर्वत्सु तत्करोति इति ण्यन्तात् शत्रुप्रत्ययः। मथाम् मन्थनदण्डानाम् वैशाखमन्थमन्थानमन्थानो मन्थदण्डके इत्यमरः। विवर्तनैः परिभ्रमणैः मुहुः प्रणुन्नेषु कम्पितेष्विति स्वभावोक्तिः। कुम्भेषु कलशेषु मृदङ्गवत् मन्थरम् मन्दम् नदत्सु सत्स्विति वाद्यसाम्योक्तिः। भावलक्षणे सप्तमी इयम्। समन्थरावल्गितपीवरस्तनीः परिश्रमक्लान्तविलोचनोत्पलाः निरीक्षितुम् नोपररामवल्लवीः अभिप्रणुत्ता इव वारयोषितः। स इति मन्थरम् मन्दम् आवल्गिताः चञ्चलाः पीवराः स्तनाः यासान्ताः तथोक्ताः। स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् इति ङीष्। परिश्रमेण क्लान्तानि ग्लानानि विलोचनोत्पलानि यासान्ताः तथोक्ताः वल्लवीः गोपीः। गोपे गोपालगोसङ्ख्य गोधुगाभीरवल्लवाः इत्यमरः। अभिप्रणुत्ताः नृत्यन्तीः गत्यर्थाकर्मक इत्यादिना कर्तरि तः। मतिबुद्धिपूजार्थेभ्यश्च इति चकारात् वर्तमानार्थत्वम्। वारयोषितः वेश्याः इव वारस्त्री गणिका वेश्या इत्यमरः। सः अर्जुनः निरीक्षितुम् ईक्षतेः तुमुन् नोपरराम न विरमति स्म। उपाच्च विभाषाकर्मकात् इति परस्मैपदम्। अत्र चतुःश्लोक्याम् उपमास्वभावोक्त्योः संसृष्टिः। पपात पूर्वाम् जहतो विजिह्मताम् वृषोपभुक्तान्तिकसस्य सम्पदः रथाङ्गसीमन्तितसान्द्रकर्दमान् प्रसक्तसम्पात पृथक्कृतान् पथः। पपातेति सः अर्जुनः पूर्वाम् प्रावृषेण्याम् विजिह्मताम् वक्रताम् जहतः त्यजतः। शरदि निष्पङ्कत्वेन समरेखयैव सुगमत्वादिति भावः। जहातेः शत्रुप्रत्ययः। वृषोपभुक्तान्तिकसस्यसम्पदः वृषभचर्वितप्रान्तसस्यसमृद्धीन्। सुकृते वृषभे वृषः इत्यमरः। सीमन्ता इव सीमन्ताः चक्राङ्गपद्धतयः। सीमन्तवन्तः कृताः सीमन्तिताः। मत्वन्तात् तत्करोतीत्यादिना णिचिक्तः। णौ इष्ठवद्भावात् मतुपो लुक्। रथाङ्गैः चक्रैः सीमन्तिताः सान्द्राः कर्दमाः घनीभूताः पङ्काः येषु तान् प्रसक्तसंपातेन संततसंचारेण पृथक्कृतान् पथः मार्गान् पपात जगामेति स्वभावोक्तिः। जनैरुपग्राममनिन्द्यकर्मभिः विविक्तभावेङ्गितभूषणैर्वृताः भृशन्ददर्शाश्रममण्डपोपमाः सपुष्पहासाः सनिवेशवीरुधः। जनैरिति सः अर्जुनः उपग्रामं ग्रामेषु विभक्त्यर्थे अव्ययीभावः। अनिन्द्यकर्मभिः अनिषिद्धवृत्तिभिः वृत्तिश्च एकत्र कृष्यादिः अन्यत्र शिलोञ्छादिः विविक्तानि एकाग्राणि भावः अभिप्रायः इङ्गितं चेष्टा भूषणम् अलङ्कारश्च येषां तैः तथोक्तैः जनैः वृताः अधिष्ठिताः इत्यर्थः। अत एव आश्रमेषु मुनिस्थानेषु ये मण्डपाः तदुपमाः मण्डपोस्त्री जनाश्रयः इत्यमरः। सपुष्पहासाः पुष्पविकाससहिताः तेन सह इत्यादिना बहुव्रीहिः। निवेशवीरुधः गृहगुल्मिनीः वीरुधौ वल्लिगुल्मिन्यौ इति वैजयन्ति। भृशं सादरं ददर्श उपमालङ्कारः। ततः ससम्प्रेक्ष्य शरद्गुणश्रियं शरद्गुणालोकनलोलचक्षुषम् उवाच यक्षस्तमचोदितोऽपि गां न हिङ्गितज्ञोऽवसरेव सीदति। तत इति ततः सः पूर्वोक्तः यक्षः शरद्गुणश्रियं सम्प्रेक्ष्य दर्शनीयां वर्णनीयाञ्च विचार्य इत्यर्थः। शरद्गुणालोकने लोलचक्षुषं सतृष्णदृष्टिं लोलश्चलसतृष्णयोः इत्यमरः। तम् अर्जुनम् अचोदितोऽपि अपृष्टोऽपि गां वाचम् उवाच तथा हि इङ्गितज्ञः भावज्ञः इङ्गितं हृद्गतो भावः इति विश्वः। अवसरे उक्तियोग्ये काले नावसीदति न वाचं यच्छति। नापृष्टः कस्यचिद्ब्रूयात् इति निषेधस्तु अनाकाङ्क्षितोक्तिविषयः इति भावः। सामान्येन विशेषसमर्थनरूपः अर्थान्तरन्यासः। इयं शिवाय नियतेरिवायतिः कृतार्थयन्ती जगतः फलैः क्रिया जयश्रियं पार्थ पृथूकरोतु ते शरत्प्रसन्नाम्बुरनम्बुवारिदा। इयमिति हे पार्थ शिवायाः कल्याणकारिण्याः नियतेः दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः इत्यमरः। शुभावह दैवस्य आयतिः फलदानकालः सैव जगतः क्रिया कृष्यादिकर्म फलैः लाभैः। लाभनिष्पत्तियोगेषु बीजभावे धने फलम् इति वैजयन्ति। कृतार्थयन्ती सफलयन्ती प्रसन्नाम्बुः निर्मलोदका अनम्बुवारिदा निर्जलमेघा। अनेन विशेषणद्वयेन द्यावापृथिव्योः आनुकूल्यं सूचयति। इयं शरत् ते जयश्रियं पृथूकरोतु आसीरर्थे लोट्। उपैति सस्यं परिणामरम्यता नदीरनौद्धत्यमपङ्कता महीम् न वैर्गुणैः सम्प्रति संस्तव स्थिरम् तिरोहितं प्रेमघनागमश्रियः उपैतीति सस्यं व्रीह्यादिकं परिणामेन परिपाकेन या रम्यता सा उपैति नदीः अनौद्धत्यं गम्यरूपत्वं उपैति महीम् अपङ्कता निष्पङ्कत्वं उपैति तथा हि सम्प्रति नवैः गुणैः पूर्वोक्तैः शरद्धर्मैः संस्तवेन परिचयेन स्थिरं दृढमपि घनागमश्रियः प्रावृड्लक्ष्म्याः सम्बन्धि तद्विषयमित्यर्थः प्रेम तिरोहितं निरर्थकं कृतमित्यर्थः गुणतन्त्राः प्रेमाणः न परिचयतन्त्राः इति भावः वास्तवालङ्कारः पतन्ति नास्मिन् विशदाः पतत्रिणः धृतेन्द्रचापा न पयोदपङ्क्तयः तथापि पुष्णाति नभश्रियं पराम् न रम्यमाहार्यमपेक्षते गुणम् पतन्तीति अस्मिन् नभसि विशदाः पतत्रिणः बलाकाः न पतन्ति न प्रसरन्ति धृतेन्द्रचापाः पयोदपङ्क्तयश्च न पतन्ति तथापि श्रीकारणाभावेऽपि नभः परां श्रियं शोभां पुष्णाति तथा हि रम्यं स्वभावसुन्दरं वस्तु आहार्यम् आरोप्यमाणं गुणं नापेक्षते तत्र स्वभावस्यैव समर्थत्वादिति भावः अर्थान्तरन्यासः विपाण्डुभिर्म्लानतया पयोधरैः च्युताचिराभागुणहेमदामभिः इयं कदम्बानिलभर्तुरत्यये न दिग्वधूनां कृशता न राजते विपाण्डुभिरिति कदम्बानिलशब्देन वर्षर्तुः उपलक्ष्यते स एव भर्ता तस्य अत्यये विरहे म्लानतया निर्जलतया दुर्बलतया च विपाण्डुभिः च्युतानि रहितानि अचिराभागुणाः विद्युल्लताः एव हेमदामानि सुवर्णसूत्राभरणानि येभ्यः तैः पयोधरैः अम्भोदैः अन्यत्र स्तनैः उपलक्षितानां स्तनाम्भोदौ पयोधरौ इति वैजयन्ती दिशः एव वध्वः तासाम् इयं कृशता न राजते इति न किन्तु राजत एव वियुक्तत्वात् आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा इति स्मरणादिति भावः सामान्यतः प्रसक्तम् अराजनं कार्ष्यस्य एकेन नया सम्भाव्य द्वितीयेन निषेधति यथाह वामनः सम्भाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ इति अत्र रूपकालङ्कारः स्फुट एव विहाय वाञ्छामुदिते मदात्ययात् अरक्तकण्ठस्य ऋते शिखण्डिनः श्रुतिश्रयत्युन्मदहं स निःस्वनम् गुणाः प्रियत्वेऽधिकृता न संस्तवः विहायेति मदात्ययात् मदक्षयात् अरक्तकण्ठस्य अस्राव्यस्वरस्य कण्ठशब्देन अत्र तद्गतः स्वरः लक्ष्यते. शिखण्डिनः मयूरस्य सम्बन्धिनि उदिते उच्चैस्तरे ऋते कूजिते वाञ्छां विहाय. श्रुतिः श्रोत्रम् कर्णशब्दग्रहौ श्रोत्रम् श्रुतिस्त्रीश्रवणम् श्रवः इत्यमरः. उन्मदहंसनिस्वनम् मत्तमरालकूजितम् श्रयति भजते. नन्वकाण्डे परिचितपरिहारेण अपरिचिते कथम् प्रीत्युदयः इत्याशङ्क्य अर्थान्तरम् न्यस्यति. गुणाः इति प्रीणातीति प्रियः. इकुपधज्ञाप्रीकिरः कः इति कप्रत्ययः. प्रियत्वे प्रीतिकरत्वे गुणाः अधिकृताः नियुक्ताः. संस्तवः परिचयः नाधिकृतः न समर्थः. प्रेमाधाने गुणवत्त्वं प्रयोजकं न परिचयः इत्यर्थः.